इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। रेलमंत्री अश्विनी वैष्णवः जम्मूतवी रेलस्थानकात् श्रीनगर जम्मू वंदे भारत एक्सप्रेस रेलयानाय हरितध्वजं प्रदर्शितवान्। रक्षामंत्री राजनाथ सिंहः नवदिल्ल्यां राष्ट्रिय सुरक्षा शिखर सम्मेलनमित्यत्र सम्बोधयन् उक्तवान् यत् पाकिस्तानः अन्ताराष्ट्रिय आतंकवादस्य केन्द्रं भारतञ्च सूचना तन्त्रज्ञानयोः केन्द्रमस्ति। सर्वोच्चन्यायालयेन केन्द्रं दुष्कर्म पीडितानां गर्भधारणस्य 20 सप्ताहात् परं समापयितुं विधेयके संशोधनाय विचारयितुम् उक्तम्। ऋतुविज्ञान विभागेन आगामिषु दिनत्रयेषु पश्चिम राजस्थाने उष्णतरंगस्य स्थितेः संभावना प्रकटिता। अपि च आईपीएल क्रिकेट क्रीडायां गुजरात टाइटन्स दलम् अद्य सायंकाले अहमदाबाद नगरे रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। रेलमन्त्रिणा अश्विनी वैष्णवेन अद्य जम्मूतवी रेलस्थात्रात् श्रीनगर जम्मू वन्दे भारत एक्सप्रेस रेलसेवा इत्यस्य शुभारम्भः हरितध्वजोत्थापनपूर्वकं कृतम्। एतत् रेलयानं यत् पूर्वं श्रीनगरात् श्रीमाता वैष्णोदेवी कटरास्थात्रं यावत् प्रचलति स्म तदधुना जम्मूतवी रेलस्थात्रं यावत् प्रचलिष्यति। अस्मिन् विस्तीर्णे मार्गे नियमितसेवाः शनिवासरात् आरप्स्यते। अवधेयं यत् एतत् रेलयानम् अधुना 20 यात्राप्रकोष्ठैः सहितं चलिष्यति, येषां संख्या पूर्वम् 8 परिमितम् आसीत्। सहैव अनेन अस्याः क्षमतायाः परस्परसम्पर्के यात्रासौविध्ये च परिष्कारः विधास्यते। वन्देभारत रेलयानस्य विस्तारेण यात्रिणः जम्मू श्रीनगरयोः मध्ये 5 होराभ्यन्तरम् एव यात्रां कर्तुं शक्नुवन्ति। अस्मिन् अवसरे केन्द्रीय राज्यमन्त्री जितेन्द्र सिंहः मुख्यमन्त्री उमर अब्दुल्ला अपि उपस्थितौ स्तः। अस्मिन् अवसरे भाषमाणः श्रीवैष्णवः अकथयत् यत् विगतेष् 12 वर्षेष् रेलयानसेवाक्षेत्रेष् महत्वपूर्ण परिवर्तनानि अभवन्। सः अकथयत् यत् जम्मूकश्मीरात् 70+300 मिति अनुच्छेदस्य अपाकरणानन्तरम् अस्मिन् क्षेत्रे विकासस्य एका निरन्तरधारा प्रवहति। श्रीवैष्णवः अकथयत् यत् यात्रिणां याचनम् अनुसरता रेलविभागेन अस्मिन् रेलयाने यात्राप्रकोष्ठानां संख्या संवर्ध्य 20 परिमिता कृता। अस्माकं संवाददातृणा संसूचितं यत् अनेन पदक्षेपेण विशिष्टरूपेण वैष्णोदेवी मन्दिरं प्रति गम्यमानाः तीर्थयात्रिणः अमरनाथयात्रिणश्च लाभान्विताः भवितुं शक्नुवन्ति। रक्षामन्त्री राजनाथसिंहः अद्य पाकिस्तानम् अन्ताराष्ट्रियातंकवादस्य केन्द्रं भारतं च सूचना प्रौद्योगिक्योः केन्द्रम् इत्यकथयत्। नवदिल्ल्याम् आयोजिते राष्ट्रिय सुरक्षा शिखर सम्मेलने भाषमाणः सः अकथयत् यत् सिन्दूराभियानेन जगति सन्देशं प्रसारितं यत् भारतं कस्यामपि परिस्थितौ कीदृशीम् अपि आतंकिगतिविधिं न सहिष्यति। श्रीसिंहः अकथयत् भारतम् अधुना तद्राष्ट्रं न अस्ति यत् पुरातन मानसिकतया सः अग्रे वर्धते स्म, यत्र अस्माकं धरायाम् आतंक्याक्रमणानि भवन्ति स्म, वयं च केवलं कूटनीतिकवक्तव्यानि प्रददति स्म। सः सर्वकारस्य तन्नीतिं पुनः स्मारितवान् यत् आतंकवादस्य तस्य प्रायोजकानां च मध्ये कीदृशः अपि भेदः न करिष्यते।
हमारे मिलिट्री इंडस्ट्रियल कॉम्प्लेक्स ने भी समय समय पर यह साबित किया है कि वह केवल शांति काल की जरूरतों के लिए नहीं, युद्ध काल की तेज आपूर्ति के लिए भी वह तैयार है। हालांकि उस बीच हमें न्यूक्लियर हमले तक की धमकी दी गई, लेकिन हम उस ब्लफ में नहीं आए। हमने उन धमकियों को नकारते हुए, कोई तवज्जो न देते हुए वही किया जो करना था, जो राष्ट्रहित में जरूरी था, और यही है न्यू वर्ल्ड ऑर्डर, यानी नई दुनिया का नया भारत।
मन्त्रिणा देशे आर्टिफिशियल इन्टेलिजेन्स इति कृत्रिम बुद्धिमत्तायाः भूमिका अपि प्रकाशिता। तेन प्रोक्तं यत् एतत् तन्त्रज्ञानं भारतीय सुरक्षाबलानां एकः अभिन्नः अङ्गः सञ्जातः। सः पुनः अकथयत् यत् अस्यां नवीनव्यवस्थायां एआई इति कृत्रिमबुद्धिमत्ता कस्यापि देशस्य रणनीतिकव्यवस्थायाम् अनिवार्यभागरूपेण सम्मिलिता भवति।
एआई का अर्थ हमारे लिए है ऑगमेंटेड इन्फेंट्री। एआई हमारी सेनाओं का एक अभिन्न अंग बन चुका है। यह हमारे फुट ऑन ग्राउंड यानी हमारी सेनाओं की क्षमता में वृद्धि भी कर रहा है, और आज के समय के युद्ध के हिसाब से हम हमारी सेना को एक टेक्नोलॉजी ड्रिवन और इंटीग्रेटेड फाइटिंग मशीन बनाने की ओर तेजी से आगे बढ़ रहे हैं।
प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सर्वोच्चन्यायालयेन अद्य एम्स इति अखिल भारतीयायुर्विज्ञान संस्थानेन प्रख्यापिता एका याचिका अधिकृत्य आपत्तिः प्रकटिता, यस्यां तम् आदेशं निरस्तीकर्तुं याचनं कृतमासीत्। यस्मिन् आदेशे एकस्यै पञ्चदशवर्षीयायै कन्यायै स्वकीयां त्रिंशत्सप्ताहस्य गर्भावस्थां चिकित्सकीयरूपेण समापयितुम् अनुमतिः प्रदत्ता। न्यायालयेन केन्द्रसर्वकारः अधिनियमे संशोधनाय अपि विचारं कर्तुं प्रोक्तः, येन दुष्कर्म पीडिताः महिलाः विंशतिसप्ताहानन्तरम् अपि अवांछितगर्भं समाप्तं कर्तुम् अनुमताः स्युः। न्यायालयेन टिप्पणी कृता यत् दुष्कर्मघटनया समावाप्ते गर्भावस्थाप्रकरणे कीदृशी अपि कठोरा समयसीमा न स्यात्। न्यायालयः सबलम् अकथयत् यत् अधिनियमाः गतिशीलाः, समयानुसारं परिवर्तनशीलाः च स्युः। मुख्य न्यायाधीशः सूर्यकान्तः न्यायमूर्ति ज्वायमाल्या बागची इति द्वयोः पीठेन प्रोक्तं यत् एषः बालदुष्कर्मस्य प्रकरणमासीत्। यदि गर्भपातस्य अनुमतिः न प्रयच्छेत् तर्हि पीडिता आजीवनं मानसिकाघातं वहिष्यति। भारत ऋतु विज्ञान विभागेन पश्चिम राजस्थाने आगामी दिनत्रयेषु उष्णतरंगस्य स्थितेः संभावना प्रकटितास्ति। तटीय आन्ध्रप्रदेशे, ओडिशायां, तमिलनाडुराज्ये, पुदुचेरीप्रदेशे, कारैक्कलप्रदेशे च आगामी दिनद्वयोः उष्णार्द्रऋतोः स्थितिः भविष्यति। ऋतुविभागेन श्वः अरुणाचलप्रदेशे, असमराज्ये, मेघालये, नागालैण्डराज्ये, मणिपुरे, मिजोरमे, त्रिपुरायाम्, उपहिमालयीये पश्चिमबंगप्रदेशे, सिक्किमे च प्रचण्डवृष्टेः पूर्वानुमानं प्रकटितमस्ति। केरलं, माहे, तमिलनाडु, पुदुचेरी, करैक्कल इत्येतेषु प्रदेशेषु मई मासस्य द्वितीय दिनांक पर्यन्तं प्रचण्ड वृष्टिः भविष्यति। ततः परं श्वः बिहारे, उत्तराखण्डे, छत्तीसगढ़े, झारखण्डे, मध्यप्रदेशे, ओडिशायां, पश्चिमबंगे, पूर्वोत्तर राज्येषु च मेघगर्जनेन सह विद्युद्योतनं भविष्यति। श्वः पूर्वी राजस्थानस्य, दक्षिणान्तरिक कर्णाटकस्य, तेलंगाना राज्यस्य, तटीय कर्णाटकस्य, तटीय आन्ध्रप्रदेशस्य, उत्तरान्तरिक कर्णाटकस्य, रायलसीमायाः च क्षेत्रेषु अपि एतादृशी स्थितिः भविष्यति। षड्विंशत्यधिकद्विसहस्रतमवर्षस्यान्तर्गतं भारतस्य ब्रिक्स अध्यक्षतायाः प्रथमं सांस्कृतिक कार्यसमूहस्य उपवेशनम् अद्य नवदिल्ल्यां सम्पन्नम्। संस्कृतिमन्त्रालयस्य सचिवस्य विवेक अग्रवालस्य अध्यक्षतायाम् अस्यां सभायाम् आभासीयमाध्यमेन ब्रिक्सदेशानां सहभागिता अभवत्। भारतीयप्रतिनिधिसंघस्य प्रतिनिधित्वम् इन्दिरागान्धिराष्ट्रियकलाकेन्द्रस्य सदस्य सचिवेन डॉ सच्चिदानन्दजोशिना अन्यैः अधिकारिभिः च सह कृतम्। सामाजिकान्तर्जालीये पटले लिखिते सन्देशे संस्कृतिमन्त्रालयेन उक्तं यत् ब्रिक्स इत्यस्य अध्यक्षतायां भारतं संस्कृतौ जनानां मध्ये आदानप्रदानस्य, सामरिकसहयोगस्य च उपरि बलं प्रददाति। आईपीएल क्रिकेट क्रीडायाम् अद्य गुजरात टाइटन्स दलम् अहमदाबादस्य नरेन्द्र मोदी क्रीडाङ्गणे रॉयल चैलेंजर्स बेंगलुरु इत्यनेन दलेन सह क्रीडिष्यति। क्रीडायाः आरम्भः सायं 7:30 वादने भविष्यति। इति वार्ताः।